श्रीगुरुभ्यो नमः, सर्वेभ्यो नमस्कारः, सर्वेषां कारकवर्गे सुस्वागतम्। कृपया भगिनी अद्य पारायणं करोति, कृपया भगिनी।
महोदय, हरि ओम्। प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा सम्बोधने च प्रथमा कारके कर्तुरीप्सिततमं कर्मकारकम् अनभिहिते अभिधानं च प्रायेण तिङ्कृतदिरसमासैः कर्मणि द्वितीया च द्वितीयानभिहिते तथा युक्तं च अनीप्सितं कर्मकारकम् अकथितं च कर्मकारकम् अकर्मकधातुभिर्योगे देशकालभावो गन्तव्योद्वा च कर्मवासंज्ञक इति वाच्यम् गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्तासणौ कर्मकारकं नीर्वह्योर्ना नियन्त्रकर्तृकस्य वहेरनिषेधः आदिकाद्योर्न भक्षेरहिर् अहिंसार्थस्य न जल्पतिप्रभृतीनामुपसङ्ख्यानं दृशेष शब्दायतेर्न हृकोरण्यतरस्याम् अणिकर्ता सन्नौ कर्मकारकम् अभिवादिदृशोरात्मनेपदे वेति वाचम् अधिशिंस्तासाम् आधारः कर्मकारकम् अभिनिविशश्च आधारः कर्मकारकम् उपाङ्वद्याङ्वसः आधारः कर्मकारकम् अभुक्तर्त्यस्य न उभयसर्वतसो कार्यादिगुपर्यादिषु त्रिषु द्वितीयामृडितान्तेषु तथोऽन्यत्रापि दृश्यते अभितपरितः समयानिकषाः प्रतियोगेऽपि अन्तरान्तरेण युक्ते द्वितीया कर्मप्रवचनीयाः अनुलक्षणे कर्मप्रवचनीयाः कर्मप्रवचनीययुक्ते द्वितीया तृतीयार्थे अनुः कर्मप्रवचनीयाः हीने अनुः कर्मप्रवचनीयाः उपोधिके हीने च कर्मप्रवचनीयाः लक्षणेत्थं भूतख्यानभागवीप्सासु प्रतिपर्यनवः कर्मप्रवचनीयाः लक्षणेत्थं भूताख्यानभागवीप्सासु अभिरभागे कर्मप्रवचनीयाः अधिपर्यनर्तकौ कर्मप्रवचनीयाः सुः पूजायां कर्मप्रवचनीयाः अतिरतिक्रमणे च पूजायां कर्मप्रवचनीयाः अपिहि पदार्थसम्भावन अन्वसर्गगर्हासमुच्चयेषु कर्मप्रवचनीयाः कालाध्वनोरत्यन्तसंयोगे द्वितीया स्वतन्त्रः कर्तृकारकम् साधकतमं करणकारकं कर्तृकरणयोः तृतीयानभिहिते प्रकृत्यादिभ्य उपसङ्ख्यानं दिवः साधकतमं करणकारकं कर्मकारकं च कालाध्वनोरत्यन्तसंयोगे अपवर्गे तृतीया सहयुक्ते प्रदाने तृतीया एनाङ्गविकारः तृतीया इत्थम्भूतलक्षणे तृतीया संयोन्यतरस्यां कर्मणि तृतीया हेतौ तृतीया गम्यमानापि क्रियाकारकविभक्तौ प्रयोजिका अशिष्टव्यवहारे दानः प्रयोगे चतुर्थ्यर्थे तृतीया कर्मणायमभिप्रैति स सम्प्रदानकारकम् चतुर्थी सम्प्रदाने अनभिहिते क्रिययायमभिप्रैति सोऽपि सम्प्रदानं यदेः कर्मणः करणसंज्ञा सम्प्रदानस्य च कर्मसंज्ञा रुच्यर्थानां प्रियमाणः सम्प्रदानकारकं श्लाघुस्थाशपां नीप्स्यमानः सम्प्रदानकारकं धारेरुत्तमर्णः सम्प्रदानकारकं स्पृहेरीप्सितः सम्प्रदानकारकं कृतद्रुहोरिशासूयार्थानां यं प्रतिकोपः सम्प्रदानकारकं कृतद्रुहोरुपसृष्टयोः यं प्रतिकोपः कर्मकारकं राधीष्णोर्यस्य विप्रश्नः सम्प्रदानकारकं प्रत्याङ्ग्यां श्रुवः पूर्वस्य कर्ता सम्प्रदानकारकम् अनुप्रतिगृणश्च पूर्वस्य कर्ता सम्प्रदानकारकं परिक्रयणे साधकमं करणं सम्प्रदानम् अन्यतरस्यां ताद्यर्थे चतुर्थी वाच्यां कृपिसम्पद्यमाने च उत्पातेन ज्ञापिते च हितयोगे च क्रियार्थोपपदस्य कर्मणि स्थानिनः चतुर्थी तुमर्ताश्च भाववचनात् चतुर्थी नमः स्वस्ति स्वाहा स्वधालङ्वषड्योगाश्च चतुर्थी उपपदविभक्तेः कारकविभक्तिर्बलीयसी अलमिति पर्याप्त पर्याप्त्यर्थग्रहणम् आशीर्विवक्षायां परामपि चतुर्थी चाशिषीति षष्टिं बाधित्वा चतुर्थ्येव भवति. मण्यकर्मण्यनादरै विभाषा आप्राणिषु चतुर्थी नौकाकन्नशुगशृगालवर्जयेषु इति वाच्यम्. गत्यर्थकर्मणि द्वितीया चतुर्थ्यौ चेष्टायाम् अनध्वनि गन्त्रादृष्टे गन्त्रादिष्टे अध्वन्ये वायं निषेधः. ध्रुवम् अपाये अपादानं कारकम् अपादाने पञ्चम्येन विहिते जुगुप्सा विरामप्रमादार्थानाम् उपसङ्ख्यानम्. भीत्रातानां भयहेतुः अपादानं कारकं पराजेरसोडः अपादानं कारकं वारणार्थानाम् ईप्सितः अपादानं कारकम् अन्तर्धौ येन दर्शनमिच्छति अपादानं कारकम् आख्यातोपयोगे अपादानं कारकं जनिकर्तुः प्रकृतिः अपादानं कारकं भुवप्रभव अपादानं कारकं लभ्योपे कर्मण्यधिकरणे च पञ्चमी. गम्यमानापि क्रियाकारकविभक्तीनां निमित्तं यथशाध्वकालनिमाणं तत्र पञ्चमी. यदुक्तादध्वन प्रथमासप्तम्यो कालात् सप्तमी च वक्तव्या. अन्यारादितरेतरेर्थे दिक्शब्दाञ्चूतरपदा जाहियुक्ते अनभिहिते पञ्चमी. कार्तिक्याः प्रभृतीति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी. बहिर्योगे पञ्चमी. अपपरिवर्जने कर्मप्रवचनीयाः आङ्मर्यादावचने कर्मप्रवचनीयाः पञ्चमी. अपाङ्परिभिः अनभिहिते प्रतिनिधिप्रतिदानयोः कर्मप्रवचनीयाः प्रतिनिधिप्रतिदाने च यस्मात् कर्मप्रवचनीययुक्ते अनभिहिते. अकर्तृणे पञ्चमी हेतौ अनभिहिते. विभाषा गुणे स्त्रियां हेतौ पञ्चमी. हेतौ पञ्चमी स्त्रियां हेतौ पञ्चमी. पृथग्नानाभिस्तृतीया पृथक् विना नानाभिस्तृतीया अन्यतरस्यां पञ्चमी द्वितीया. करणे च स्तोकल्पकृच्च कतिपयस्य असत्त्ववचनस्य पञ्चमी अन्यतरस्यां तृतीया. असत्त्ववचनस्य दूरान्तिकार्तेभ्यो द्वितीया च पञ्चमी तृतीया सप्तमी. शेषे षष्टि अनभिहिते. आधारस्य सम्बन्ध विधया विवक्षाभावः षष्टिहेतुप्रयोगे हेतौ सर्वनाम्नस्तृतीया च षष्टिहेते हेतौ हेतुप्रयोगे. निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनं षष्ट्यतसर्थप्रत्ययेन. येन वा द्वितीया षष्टिशेषे दूरान्तिकार्तैः षष्टि अन्यतरस्यां पञ्चमी. न्यो विदर्थस्य करणे षष्टिशेषे अधिगर्ददयेषां कर्मणि षष्टिशेषे. कृञ् प्रतियत्ने कर्मणि षष्टिशेषे. रुजार्तानां भाववचनानाम् अज्वरेः कर्मणि षष्टिशेषे. अज्वरी सन्ताप्योरिति वाच्यम्. आशिषिनाथः कर्मणि शेषे षष्टि. जासि निप्रहण नाटक्रात पिशां हिंसायां कर्मणि शेषे षष्टि. व्यवहृपणोः समर्थयोः कर्मणि शेषे षष्टि. समर्थयोः व्यवहृपणोः तदर्थस्य दिवः कर्मणि षष्टि. विभाषोपसर्गे दिवः तदर्थस्य व्यवहृपणोः समर्थयोः कर्मणि षष्टि. प्रेष्य भ्रुवोर्हविषो देवता सम्प्रदाने कर्मणः षष्टिं. हविषः प्रस्थितत्वविशेषणे प्रतिषेधो वक्तव्यः. कृत्वोक्तप्रयोगे काले अधिकरणे शेषे षष्टि. कर्तृकर्मणोः कृतिषष्टि. गुणकर्मणि वेष्यते उभयप्राप्तौ कृतिकर्मणि षष्टि. स्त्रीप्रत्यययोर् अकाकारयोर्नायं निषेध नियमः. शेषे स्त्रीप्रत्यये विभाषा शेषे विभाषा. इक्तस्य च वर्तमाने षष्टि. अधिकरणवाचिनः इक्तस्य योगे षष्टि अनभिहिते. द्विकर्मकाणाप्रयोगे कर्तरि कृति द्वयोरपि षष्टि द्वितीयात्. अन्ये प्रदाने कर्मण्याहुः न लोकव्ययनिष्ठाकळतॄणां षष्टि. उक प्रतिषेधे कमेर्भाषायाम् अप्रतिषेधः. द्विषः चतुर्वा किं महोदय अकेनोर् भविष्यद् अधर्मण्ययोः न षष्ठी कृत्यानां कर्तरी वा षष्ठी उभयप्राप्तौ कृत्यानां न षष्ठी तुल्यार्थैः अतुलोपमाभ्यां तृतीय अन्यतरस्यां शेषे षष्ठी चतुर्थी चाशिष्यायुष्य मद्रभद्रकुशल सुखार्थहितैः शेषे षष्ठी आधोरो आधारोऽधिकरणं सप्तम्यधिकरणे दूरान्तिकार्तेभ्यः च सप्तमी विधाने इक्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानं साधु असाधु प्रयोगे च सप्तमी निमित्तात् कर्मयोगे सप्तमी यस्य च भावेन भावलक्षणं तस्य अनभिहिते सप्तमी अनादराधिक्ये यस्य च भावेन भावलक्षणं तस्य षष्ठी च सप्तमी स्वामिन्नीश्वर अधिपतिदायाद साक्षिन् प्रतिभूप्रसूतैः योगे षष्ठी सप्तम्यौ स्तः आयुक्तकुशलाभ्याम् आसेवायां षष्ठी सप्तमी च यतः निर्धारणं ततः च षष्ठी सप्तम्यौ विभक्ते गम्ये यतश्च निर्धारणं तस्य पञ्चमी साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः अनभिहिते प्रसितोत्सुकानां तृतीया सप्तमी च अनभिहिते अधिकरणे लुपि नक्षत्रे तृतीया सप्तमी च अनभिहिते कालाध्वनाभ्यां कारकमध्ये सप्तमी पञ्चम्यो अनभिहिते अधिरीश्वरे कर्मप्रवचनीयः यस्माद् अधिकं यस्य चेश्वरवचनं तत्र सप्तमी कर्मप्रवचनीययुक्ते अनभिहिते इति तत्र
एकमेव सूत्रम् अवशिष्टमस्ति तदपि पठतु भगिनि यद्यपि
विभाषा कृमि अधिः कर्मप्रवचनीयः इति
उत्तमं धन्यवादाः भगिनि अस्तु यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रे स्मः तत्र गते वर्गे किञ्चित् क्लेशः मम मनसि जातः किन्तु यथा अत्र लिखितमस्ति अपि च यथा भगिन्या भव्या भगिन्या प्रतिपादितं तदेव समीचीनं तर्हि पुनः एकवारं पश्येम अस्य सूत्रस्य अर्थः कः इति तर्हि भव्या भगिनी भवती एव आरम्भं करोति वा
आम् महोदय प्रयते महोदय तर्हि उदाहरणानि पश्यन्तः स्मः खलु ततः आरभ्य खलु आरम्भतः वा न चेत्
अत्र यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रेण कस्य किं विधानमस्ति तत्र विधानद्वयं वस्तुतः एकमेव विधानं खलु सप्तमी विभक्तेः विधानं
भवता एव तत्र पदार्थः इत्यस्मिन् पठामि वा इति
अस्तु पठनीयं चेत् वदतु प्रथमं सूत्रं विभजितं खलु अस्माभिः तर्हि
प्रथमविभागः यस्मादधिकम् इति प्रथमविभागः
तत्र यस्मादधिकं तत्र सप्तमी इति भवत्या उक्तम्
आम्
किन्तु तत्रापि अनुवर्तनानि योजनीयानि अनुवर्तनानि योजयित्वा वदतु
यस्मात् अधिकं कर्मप्रवचनीययुक्ते अनभिहिते कर्मप्रवचनीययुक्ते तत्र सप्तमी इति
उत्तमं यस्मादधिकं कर्म अनभिहिते कर्मप्रवचनीययुक्ते तत्र सप्तमी इति तर्हि अत्र इति पठति चेत् इदानीम् अस्य सूत्रस्य अर्थः कः स्वशब्दैः प्रतिपादयति
अस्य सूत्रस्य अर्थः किम् इत्युक्ते अत्र कर्मप्रवचनीययुक्ते अनभिहिते इति उक्तम् अस्ति इत्युक्ते कर्मप्रवचनीयसंज्ञा किमपि शब्दस्य प्रयोगः यस्मात् अधिकम् इति वदनेन किम् अस्ति वयं तु किम् अस्ति कस्यचिदपि वस्तुनः अन्यस्मात् अधिकम् इत्यर्थे वयं प्रयोगं कुर्मः तत्र कर्मप्रवचनीयसंज्ञाशब्दानां प्रयोगं कुर्मः चेत् तत्र किमस्ति सप्तमी विभक्तिर्विधीयते यस्मात् किम् अस्ति यस्मात् इति इत्यनेन तस्य सप्तमी इति तस्य शब्दस्य सप्तमी इति भवति खलु
उत्तमम् तर्हि यस्मादधिकम् अनभिहिते कर्मप्रवचनी यस्मादधिकं कर्मप्रवचनीययुक्ते अनभिहिते तत्र सप्तमी इति सूत्रस्य अर्थः कः इति चेत्, यदि यं कमपि कर्मप्रवचनीयसम्यक्शब्दम् अधिकार्थे प्रयोगं कुर्मश्चेत् तदा कर्मप्रवचनीयसंज्ञकशब्देन युक्तशब्दस्य सप्तमी स्यात् इति सूत्रार्थः। तर्हि अत्र उप इति शब्दं सूत्रेण प्रयुक्तं, यं कमपि कर्मप्रवचनीयसंज्ञकशब्दं यदि अधिकार्थे प्रयुज्यते तदा तेन युक्तशब्दस्य सप्तमी स्यात् इति सूत्रस्य अर्थः। तर्हि के शब्दाः अधिकार्थे कर्मप्रवचनीयसंज्ञकाः भवन्ति इति बोद्धुम् अत्र स्प्रेड्शीट् अस्ति खलु, यस्मात् वयं पारायणं कुर्मः, तत्र द्वितीय स्प्रेड्शीट् अस्ति कर्मप्रवचनीयाः इति, पूर्वमया स्थापितमासीत्, तत्र सर्वे पश्यन्तु, आहत्य अनु उप अप परि आङ् प्रति अभि अधि सु अति अपि इति एकादशशब्दानां कर्मप्रवचनीयसंज्ञा भवति भिन्नभिन्नसूत्रैः। तत्र सूत्राणि अपि मया लिखितं, प्रत्येकं सूत्रे कस्मिन्नर्थे अस्य अथवा येषां शब्दानां कर्मप्रवचनीयसंज्ञा भवति इति अपि उक्तम्। तर्हि अत्र पश्यन्तु, उपोधि केच इति एकं सूत्रमस्ति, तेन सूत्रेण केवलम् उप इति शब्दस्य एव अधिकार्थे अधिकम् इति अर्थं बोद्धुं कर्मप्रवचनीसंज्ञा विधीयते उपोधिके च इति सूत्रेण। तर्हि यस्मादधिकं कर्मप्रवचनीयुक्ते अनभिहिते तत्र सप्तमी इत्यत्र इदानीम् उदाहरणमस्ति खलु, तर्हि तस्मिन् तत्र प्रतिपादयतु भगिनि, भव्या भगिनि, उपपदार्थे हरेर्गुणाः इति
इत्यस्मिन् किम् अस्ति अत्र उप अपरार्धे परार्धे हरेर्गुणाः इति अस्ति। तर्हि उप इति कर्मप्रवचनीयसंज्ञा अस्ति, तर्हि उप इति पृथक् वयं किञ्चित् लेखनीयं भवति, तदा सामान्य यत्र लेखनं भवति। तर्हि परार्धे उप हरेः गुणाः इति भवति खलु। तर्हि अत्र किम् अस्ति अत्र तु
अस्मिन् उदाहरणे उप इति शब्दस्य कः अर्थः?
हरेः गुणाः परार्धेः उप इत्युक्ते अधिकः इति अर्थः।
तर्हि यथा सरला भगिन्या कृतं गते वर्गे, अत्र उप इत्यस्मिन् स्थाने अधिकम् इति शब्दं प्रयुज्य एतदेव उदाहरणं पुनर्वदतु।
परार्धानाम् अधिकं हरे अधिकाः हरेः गुणाः।
किमर्थं परार्धानाम् इति षष्टि?
अधिक परार्धात् अधिकम् इति सप्तमी, परार्धा क्षम्यतां परार्धेभ्यः अधिकम् इति वक्तव्यं वा?
परार्धेभ्यः इति प्रायः न, तत्र एकवचने अपि वक्तुं शक्यते, परार्धे इति एव अस्ति खलु।
अस्तु, परार्धात् अधिकं हरेः अधिकाः हरेः गुणाः इति।
परार्धात् अधिकाः हरेः गुणाः। तर्हि अत्र परार्धशब्दस्य पञ्चमी कथं लब्धम्?
अत्र किम् अस्ति विभक्ते इति मन्ये खलु, विभक्तम् अस्ति इति विभक्तम् अस्ति इति खलु,
न
पञ्चमी विभक्ते इति सूत्रेण
न तेन सूत्रेण नास्ति। विभक्ते इति पदस्य अर्थः भेदः इति, विवक्षितं खलु,
निर्धारणं क्रियते इति सूचयति वा?
निर्धारणे षष्ठी अथवा सप्तमी भवति। परार्धात् अधिकम् अधिकाः हरेः गुणाः इति समीचीनप्रयोगः, किन्तु इदानीं परार्धशब्दस्य पञ्चमी कथम्?
निपुण इति
अन्येषां चिन्तनमस्ति चेत्
एव सन्ति
यस्मात् अधिकं न महोदय
तेन किं
कस्मात् अधिकम् इत्युक्ते परार्थात् अधिकम्
उत्तमम् अत्र बहु उत्तमं भगिनि अत्र यस्मात् अधिकम् इति पाणिनिमहर्षिणा एव सूत्रितं खलु
आम् महोदय तस्मात्
अतः तदेव ज्ञापकं भवति अधिकशब्दस्य योगे तत्र अवधिः अवधित्वं यस्मिन् अस्ति तस्य पञ्चमी इति यस्मात् अधिकम् इति प्रयोगेन पाणिनिमहर्षिणा पाठितमस्ति तर्हि यस्मादधिकम् इति सूत्रमेव एतदेव सूत्रम् अत्र ज्ञापकं भवति इति वक्तुं शक्यते अथवा ध्रुवमपायपादानम् इत्यनेन यद् ध्रुवं ध्रुवम् इत्युक्ते अवधिः यत् अथवा अवधित्वं यस्मिन् अस्ति तस्य अपादानसंज्ञा तेन तदनन्तरम् अपादाने पञ्चमी इत्यनेन पञ्चमी इति अपि वक्तुं शक्यते किन्तु अत्र साक्षात् यस्मादधिकम् इति पाणिनिमहर्षिणा पाठितम् इति कृत्वा परार्धशब्दस्य पञ्चमी तर्हि परार्धात् अधिकाः हरेः गुणाः इति भवति यदि अधिकशब्दं प्रयोगं कुर्मः किन्तु अधिकार्थे यदि उप इति शब्दं प्रयोगं कुर्मः तदा उपोधिके च इति सूत्रेण उपशब्दस्य कर्मप्रवचनीयसंज्ञा भवति अपि च कर्मप्रवचनीययुक्ते द्वितीया इत्यनेन द्वितीया स्यात् किन्तु तां द्वितीयां प्रबाद्य अनेन सूत्रेण सप्तमी इति आशयः अस्तु तर्हि इदानीं द्वितीयभागः भव्या भगिनि भवती एव वदतु
आं महोदय तर्हि द्वितीयभागः अस्ति यस्य च ईश्वर वचनं तत्र सप्तमी तत्र सप्तमी यस्य च
ईश्वरवचनं
अनभिहिते तत्र सप्तमी इति
अधिकशब्दस्य योगे सप्तमी अपि भवति खलु अधिकशब्दस्य योगे सप्तमी अपि भवति खलु
केन सूत्रेण
सूत्रेण नास्ति तत्र पाणिनीयसूत्रमेव ज्ञापकं यदा यस्मादधिकम् इति सूत्रं ज्ञापकं तथैव यदस्मिन् इति अन्यत् सूत्रं ज्ञापकम् इति पठितं खलु पूर्वं
किञ्चित् स्मारयति वा
हा तत्र पञ्चमी सप्तमी पञ्चम्यौ कारकमध्ये इति सूत्रे तस्मिन् सूत्रसन्दर्भे विभक्तिद्वयं विधीयते इति उक्तं कारकशक्त्योः मध्ये इति तस्मिन् सन्दर्भे अधिकशब्दस्य योगे अपि सप्तमी पञ्चमी द्वयमपि भवति तत्र पाणिनेः सूत्रमेव ज्ञापकम् एकं सूत्रं पञ्चमीविधानार्थं यस्मात् अधिकम् इति सूत्रं ज्ञापकम् अनन्तरं तदस्मिन् अधिकम् इति अन्यत् सूत्रं ज्ञापकमस्ति सप्तमीविधानार्थम्
आम् सत्यम् सत्यम् अस्माभिः पठितम् उत्तमं भगिनी धन्यवादः तर्हि इदानीं सप्तमी प्रयुज्य वदतु वाक्यं भव्या भगिनी
आं महोदय तर्हि अत्र यस्मिन् अधिकं कर्मप्रवचनीयुक्ते अनभिहिते तत्र सप्तमी
सूत्रं यथा उदाहरणम्
उपपरार्धे अत्र तु उप क्षम्यतां परार्धे अधिकाः हरेः गुणाः
इति अपि वक्तुं शक्यते परार्धे अधिकाः हरेर्गुणाः इति अपि तत्र परार्धशब्दस्य सप्तमी अपि भवितुमर्हति अधिकशब्दस्य योगे तत्र अन्यत् सूत्रं यदस्मिन् इति कश्चन सूत्रमासीत् किञ्चन सूत्रमासीत् तत्र तेन तत्सूत्रमेव ज्ञापकं भवति तर्हि अत्र सप्तमी तद् योजयिष्यामि अत्र फुट्नोट् इति एतद्वयमपि अत्र योजयिष्यामि अस्तु धन्यवादः भगिनि तर्हि इदानीं यस्य च ईश्वरवचनं कर्मप्रवचनीयुक्ते अनभिहिते तत्र सप्तमी इति सूत्रस्य अर्थः कः भव्या भगिनि वदतु
आम् महोदय अत्र उक्तमस्ति अत्र एव यस्य च ईश्वरवचनम् इति कर्मप्रवचनीयुक्ते अनभिहिते तत्र सप्तमी इति उक्तम् अस्ति तद्बोधं वयं प्रथमं किं कृतवन्तः अधीश्वरे इति सूत्रं पठितवन्तः तत्र लिखितम् आसीत् अधि इति इति पदस्य कर्मप्रवचनीयसंज्ञा भवति, यत्र वयं किम् अस्ति ईश्वरे इति अर्थे इत्युक्ते स्वामित्वं यत्र बोधितं भवति इति खलु. उदाहरणार्थं यत्र सामान्यतया तु ब्रह्मदत्तस्य पाञ्चालाः इति भवति, किन्तु वयं यत्र स्वामित्वं बोधयितुं वयम् इच्छामः तदा तु यदि वयम् अधि इति प्रयोगं कुर्मः, तस्य तु तत्र स्वामिः यः अस्ति तस्य तु सप्तमी भूत्वा अधि ब्रह्मदत्ते पाञ्चालाः इति वयं वयं पठितवन्तः. तत्रैव तत्रैव स्वामित्वस्यपि भवति अनन्तरं स्वत्वस्यपि भवति इति वयं तत्र पठितवन्तः. तत्रैव अधिपाञ्चालेषु ब्रह्मदत्तः इत्यपि पठितवन्तः वयं. साधुकुलं महोदय, तत्रैव उभयमपि स्वामिनः स्वत्वस्वपि सत्वं यत्र अस्ति तत्रापि किम् अस्ति कर्मप्रवचने अधि इति कर्मप्रवचनीयसंज्ञा भवति. तत्र तु केवलं तत्र सम्बन्धः स्वामित्वस्वत्वसम्बन्धं बोधयति अधि इति शब्दः इति पठितवन्तः. तर्हि तदेव अत्रापि स्वीकृत्य ईश्वरवचनम् इत्यनेन तदेव बोध्यते. सामान्यतया वयं किम् अस्ति अधि इति शब्देन वयं स्वामित्वं वा स्वत्वं वा वयं बोधयामः, वयं बोधनं तत्र बोधनं कुर्मः. तर्हि अत्रापि तथैव अस्ति अधि ब्रह्मदत्ते, तत्रैव उदाहरणे एव वयं पठितवन्तः अधि ब्रह्मदत्ते पाञ्चालाः इति ब्रह्मदत्ते इति सप्तमी विधानम् अस्ति अस्माकम् उदाहरणवाक्ये. तथा एव अधि पाञ्चालेषु ब्रह्मदत्तः इत्यस्मिन् पाञ्चालेषु इति सप्तमी विधानं स्वत्वस्य सप्तमी विधानम् आसीत्. अधि ब्रह्मदत्ते पाञ्चालाः इत्यस्मिन् ईश्वरत्वं यस्मिन् अस्ति तस्य सप्तमी विधानम् अस्ति. तर्हि अत्र अधि उपसर्ग यत्किमपि कर्मप्रवचनीय संज्ञायाः तथा भवति, किन्तु अधि इति वयम् अधि इति कर्मप्रवचन शब्दस्य प्रयोगम् ईश्वरस्वामी स्वत्वसम्बन्धस्य प्रयोगे भवति इति पठितवन्तः इति कृत्वा तदेव अस्माकम् उदाहरणं भवति, तत्रैव प्रयोगः.
उत्तमं. तर्हि तत्र अधि कुतः प्रतिध्वनिः अस्तु. तर्हि तत्र स्प्रेड्शीट् पश्यन्ति चेत् ईश्वरार्थे केवलम् अधि इति शब्दस्य एव कर्मप्रवचनीयसंज्ञा भवति, अथवा कर्मप्रवचनीयसंज्ञकपदानि कानि ईश्वरार्थे इति चेत् केवलम् अधि इति शब्दः. तर्हि यस्य च ईश्वरवचनं कर्मप्रवचनीयुक्ते यस्य च ईश्वरवचनम् अनभिहिते तत्र सप्तमी, इत्युक्ते अत्र कर्मप्रवचनीयुक्ते अधि इति कर्मप्रवचनीययुक्ते यस्य च ईश्वरवचनम् इत्युक्ते यस्य ईश्वरत्वम् अस्ति यदि अनभिहिते तर्हि तत्र सप्तमी इति एकः अर्थः. अधि इति कर्मप्रवचनीययुक्ते यस्य अपेक्षया ईश्वरत्वं तस्य अपेक्षितस्य अनभिहिते सप्तमी इति द्वितीयः अर्थः. तेन अधि भुवि रामः अथवा अधि रामे भूः इति उभयता वक्तुं शक्यते. अस्मिन् वाक्ये अधि इति शब्दस्य शब्दः ईश्वरार्थे प्रयुक्तः अस्ति, किन्तु अधिरीश्वरे इति सूत्रेण अस्माभिः दृष्टं तत्र स्ववाचकात् सप्तमी भवति अथवा स्वामिवाचकात् सप्तमी भवति इति उभयता भवितुमर्हति. तर्हि अत्र अनेन सूत्रेण यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति अनेन लीना भगिनी वदतु. तर्हि इदानीं विधानम् एकमेव सप्तमी विभक्तिविधानं, किन्तु स्थानिनः कति स्थानिनः सन्ति?
भुवि तथा च रामः सप्तमी अस्ति चेत्
अस्मिन् सूत्रे यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रे कति स्थानिनः सन्ति
यस्य यस्य इति एकमेव
अस्तु यस्य
ईश्वरवचनं क्षम्यतां महोदय यस्य न यस्य च इत्यनेन ईश्वरवचनम् इति यस्मिन् ईश्वरवचनं न
अत्र उदाहरणत्रयमस्ति खलु
आम्
उपपरार्धे हरेः गुणाः इति एकम् उदाहरणम् अधिभुवि रामः इति अन्यम् उदाहरणम् अधिरामे भूः इति तृतीयम् उदाहरणम्
आम्
तर्हि अत्र परार्धे परार्धशब्दः स्थानि भूशब्दः स्थानि रामशब्दः अपि स्थानि
रामशब्दः स्थानि
तर्हि आहत्य त्रयः स्थानिनः सन्ति आदेशः एकः एव अधिकार्थे उप इति कर्मप्रवचनीयसंज्ञकशब्दस्य प्रयोगे युक्तशब्दस्य सप्तमी तर्हि तत्र युक्तशब्दस्य इत्यनेन एकः स्थानिः स्थानी उक्तः तदनन्तरम् अधि इति शब्दः ईश्वरार्थे प्रयोगं कुर्मश्चेत् तथा स्वामिवाचकशब्दात् सप्तमी इति द्वितीयस्थानि अधि रामे भूः इति तस्य उदाहरणम् इदानीं रामः स्वामी अस्ति तस्य एव सप्तमी तृतीयम् अधिभुवि रामः इत्यत्र अधिशब्दः ईश्वरार्थे प्रयोगं कुर्मश्चेत् तथा स्वामी इति सापेक्षिकशब्दः अस्ति यदा स्वामी इति वदामश्चेत् कस्य इति प्रश्नः उदेति तर्हि तस्यापि स्ववाचकात् शब्दात् अपि सप्तमी भवति
सप्तमी
इति आहत्य त्रयः स्थानिनः अस्तु इति
अस्मिन् सूत्रे क्लेशः कः इति चेत् अत्र यस्मात् अधिकम् इति उक्तं तत्र रामः अपि च भुविः अनयोः अपि तत्र आधिक्यं वक्तुं शक्यते परन्तु केवलं वेदः कः इति चेत् अधि इत्यस्य आधिक्यम् इत्यस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा नास्ति इति कृत्वा तत्र क्लेशः जायते
सत्यं
पुनः एकवारं वदतु भगिनि
इत्युक्ते यत्र स्वस्वामिभावसम्बन्धः अस्ति तत्र स्वामिनः आधिक्यम् अस्ति इति ज्ञायते स्वम् इत्यस्य अपेक्षया स्वामिनः आधिक्यम् अस्ति इति ज्ञायते अतः यस्मात् अधिकम् इति वदामः चेत् तत्र भूः इत्यस्य अपेक्षया रामस्य आधिक्यम् अस्ति इति ज्ञायते परन्तु तस्मिन् अर्थे अधि इत्यस्य कर्मप्रवचने संज्ञा नास्ति इति कृत्वा यस्मात् अधिकम् इति भागेन भुवि इत्यस्य सप्तमीभक्तिः नास्ति भूः इत्यस्य सप्तमीभक्तिः नास्ति इति तत्र भेदः
उत्तमम् इति एतत् सूत्रमस्माभिः चिन्तितं तर्हि इदानीं लीना भगिनी भवती एव अत्र सिद्धान्तकौमुदी पठतु
पठामि महोदय सिद्धान्तकौमुदी अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् उपपरार्धे हरेः गुणाः परार्धात् अधिकाः इति अर्थः एकक्षणम् अधिकाः इति अर्थः ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी अधिभूवि रामः अधिरामे भूः इति सिद्धान्तकौमुदी अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् सामान्यतः कर्मप्रवचनीयः अस्ति चेत् द्वितीया भवति तस्य बाधं कृत्वा अत्र सप्तमी भवति अतः उपपरार्धे हरेः गुणाः इत्यत्र परार्ध इति शब्दस्य मीन्स् परार्धं नाम अत्र संख्या परार्धसङ्ख्यायाः समीपं नाम अधिकाः हरेः गुणाः सन्ति इति कृत्वा परार्ध इत्यत्र सप्तमी कृता वर्तते परार्धात् अधिका इति अस्य अर्थः वर्तते उपपरार्धे हरेः गुणाः इति वाक्यस्य अधुना यत्र ऐश्वर्य इति अर्थः अस्ति. तत्र अन्यत् उदाहरणं दत्तम् अस्ति. अन्यः उदाहरणः अस्ति, क्षम्यताम्, अन्यत् उदाहरणम् अस्ति अधिभूवि रामः, अधिरामे भूः इति. तत् अधुना अधिभूवि रामः इत्यत्र रामे इति यत् सप्तमी वर्तते तत्र स्वामी यत् अस्ति तस्य पदस्य सप्तमी ईश्वरत्वम् अस्ति इति कृत्वा, तथा च भुवि इति स्व इति स्वस्वामित्वसम्बन्ध इत्यत्र स्व इति अस्ति तस्य सप्तमी अत्र भुवि इत्यत्र अभवत्. ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी, नाम स्व इत्यस्य अपि सप्तमी भवति, स्वामी इत्यस्य अपि सप्तमी भवति इति अस्मिन् उदाहरणे अस्माभिः अवगतम्.
उत्तमं
वा,
सत्यं. तर्हि अत्र केवलं काशिकां पठतु.
काशिका, कर्मप्रवचनीययुक्ते इति वर्तते. यस्मात् अधिकम् इति भवेत् खलु, यस्मात् अधिकं यस्य च ईश्वरवचनं कर्मप्रवचनीययुक्ते तत्र सप्तमी विभक्तिः भवति. उपखार्यं द्रोणः. कार्यं नाम किं महोदय? उपखार्यं द्रोणः, काशिकामध्ये एकम् उदाहरणं वर्तते.
उपखार्यं द्रोणः
परिमाणविशेषः भगिनी, परिमाणविशेषः.
ओ ओ ओ, ओके, अस्तु.
द्रोणः
द्रोणः अपि परिमाणविशेषः, इत्युक्ते द्रोणस्य आधिक्यम् अस्ति कार्यस्य अपेक्षया.
उपनिष्केकार्षापणम्. कार्षापणं नाम किं भगिनि?
तदपि तत्र स्वर्णं, तत्र स्वर्णम् इत्यादयः तत्र लोहाः भवन्ति खलु, तेषां मापनं क्रियते. निष्क इति अपि परिमाणविशेषः, कार्षापणम् इत्यपि परिमाणविशेषः. कार्षापणस्य आधिक्यम्
यथा अत्र वयं वदेम खलु सुवर्णस्य तत्र 1 sovereign 2 sovereign तादृशं किमपि.
मेजरिङ्ग् गोल्ड्, मेजरिङ्ग् गोल्ड्, सिल्वर् एक्सेट्रा.
ओके. यस्य च ईश्वरवचनम् इति स्वस्वामिनोः द्वयोः अपि पर्यायेण सप्तमी विभक्ति भवति. अधिब्रह्मदत्ते पाञ्चालाः, अधिपाञ्चालेषु ब्रह्मदत्तः इति द्वितीया अपवादः योगः. पञ्चालाः. द्वितीया अपवादः एतत्तु अवगतं. योगः इति किमर्थम्?
द्वितीया अपवादः योगः इत्युक्ते अत्र किमर्थम् एतत् सूत्रं पठितम् उक्तम् इति. द्वितीया अपवादः योगः इत्युक्ते यदा उप इति शब्दस्य योगः भवति अथवा अधि इति शब्दस्य योगः भवति तदा कर्मप्रवचनीयसंज्ञा भवति. कर्मप्रवचनीयुक्ते द्वितीया इति स्यात्, किन्तु तं प्रबाध्य इदानीम् अत्र सप्तमी विधीयते. अस्तु,
अवगतम्
महोदय.
धन्यवादः भगिनी. एकमेव अवशिष्टमस्ति.
श्रूयते, किमर्थं तत्र उपकार्यं कार्यं द्रोणः इति दत्तं? तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति न तत्र?
अस्ति इति कृत्वा दत्तम्. अस्य 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 वाक्यस्य अर्थः कः? उपकार्यं द्रोणः इति वाक्यस्य अर्थः कः?
तत्र मापनम् इति उक्तं किल, मेजर्मेण्ट् इति उक्तं किल भवान्?
तर्हि अर्थः कः?
कार्ये भवति न, तत्र सप्तमी नास्ति.
कार्यस्य अपेक्षया
कार्यम् इत्युक्ते कर्मप्रवचनीयसंज्ञा भवति, द्वितीया विभक्ति भवति. तत्
सत्यं सत्यं सत्यम्. उपकार्ये सत्यम्, उपकार्ये इत्येव स्यात्. अस्तु, तर्हि वंशी भगिनी भवती एव विभाषाक्री
एकः संशयः महोदय, तत्र विद्याभगिनी यत् उक्तवती अधिभुवि रामः अधिरामे भूः, तत्र किञ्चित् वैशिष्ट्यमस्ति भवती उक्तवती, अहं सम्यक्तया न अवगतवती, एकवारं वदतु भगिनी.
न न अत्र 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 सूत्रं पश्यामः चेत् यस्मात् अधिकं यस्य च ईश्वरवचनम् इति उक्तं खलु, तर्हि कथं जानीमः यस्माद् अधिकम् इत्यनेन केवलम् उपोदिके इत्यत्र एव भवति, न तु अधिरीश्वरे इति स्थले न भवति. कथं जानीमः इति चेत् उभयत्र आधिक्यं सूच्यते, तत्र भूः इत्यस्य अपेक्षा रामस्य आधिक्यम् अस्ति खलु, स्वामिनः आधिक्यम् अस्ति एव स्वम् इत्यस्य अपेक्षया. तर्हि किमर्थम् अत्र यस्माद् अधिकम् इत्यनेन एव किमर्थं तत्र भुवि इत्यस्य सप्तमी किमर्थं न स्यात् इति प्रश्ने सति, यद्यपि आधिक्यं ज्ञायते तथापि अधि इत्यस्य आधिक्यम् इत्यस्मिन् अर्थे कर्मप्रवचनसंज्ञा नास्ति. अधि इत्यस्य कर्मप्रवचनसंज्ञा स्वस्वामिभावसम्बन्धे एव तत्र कर्मप्रवचनसंज्ञा खलु, न तु आधिक्यम् इत्यस्मिन् अर्थे इति कृत्वा.
अस्तु, अधिरीश्वरे इति किं, तत्रापि सूत्रं कर्मप्रवचनसंज्ञा भवति न, तत्र ईश्वरार्थे तत्र कर्मप्रवचनसंज्ञा,
स्वस्वामिभावसम्बन्धे एव कर्मप्रवचनसंज्ञा भवति, न तु आधिक्यम् इत्यस्मिन् अर्थे.
ओ, आधिक्यम् इत्यस्मिन् अर्थे,
उपोदिके इति सूत्रे आधिक्यम् इत्यस्मिन् अर्थे एव उक्तं खलु. उपोदिकम् इत्यत्र आधिक्यं यदा उप इति कर्मप्रवचनसंज्ञा तस्य आधिक्यम् उप इति आधिक्यं सूच्यते तदानीं कर्मप्रवचनसंज्ञा भवति इत्युक्तम्.
अस्तु,
परन्तु अधि इत्यस्य तथा नास्ति, आधिक्यं सूच्यते अधि इत्यस्य कर्मप्रवचनसंज्ञा इति नास्ति, परन्तु स्वस्वामिभावसम्बन्धः ज्ञायते चेदेव अधि इत्यस्य कर्मप्रवचनसंज्ञा.
तर्हि तत्र यस्मात् अधिकं यस्य च ईश्वरवचनं, यस्मात् अधिकम् इत्यस्य उदाहरणमस्ति उपपरार्थे हरे गुणे गुणाः इति भवति किल तत्र,
तावदेव.
अपि च हा, अपि च यस्य च ईश्वरवचनम् इत्यस्य तु अधिभुवि रामः अधिरामे भूः इति
भवति, भवति तत्रैव.
हा, पृथक् पृथक् सूत्राणि तत्र सूत्रे
इति विवक्ष
उदाहरणं
समीचीनं.
धन्यवादः भगिनि.
इत्युक्ते वंशी भगिनि, अत्र अनुवृत्तिः केवलं कर्मप्रवचनीययुक्ते इति एव उक्तं, कर्मप्रवचनीययुक्ते इति इत्यस्य अनुवृत्तिः अस्ति, किन्तु कः कर्मप्रवचनीयसंज्ञक
युक्ते भवति,
किं शब्दः इति अत्र न उक्तं, केवलं कर्मप्रवचनीययुक्ते इति एव उक्तं. तस्मिन् कर्मप्रवचनीयसंज्ञकशब्दे युक्ते इति न उक्तम्, किन्तु अधिकम् इति पठितं, यस्मात् अधिकम् इति पठितं खलु, तर्हि अधिकार्थे यस्य कस्यापि शब्दस्य कर्मप्रवचनीयसंज्ञा अस्ति चेत् तदा तेन युक्तशब्दस्य सप्तमी स्यात् इति एकम्. अपि च ईश्वरार्थे यदि किञ्चन शब्दस्य कस्यचन शब्दस्य कर्मप्रवचनीयसंज्ञा अस्ति चेत् तेन युक्तशब्दस्य सप्तमी इति एव उक्तं. तर्हि अत्र अत्र अधिकार्थे के शब्दाः उक्ताः, केषां शब्दानां कर्मप्रवचनीयसंज्ञा भवति इति बोद्धुं संज्ञाविधायकसूत्राणि द्रष्टव्यानि, तदर्थमेव अत्र एक्सेल् शीट् मया स्थापितम्.
आम् आम् महोदय.
हा, अत्र अनु इति कर्म इति शब्दस्य कर्मप्रवचनीयसंज्ञा केषु केषु अर्थेषु भवति इति एतत् स्प्रेड् शीट् दृष्ट्वा अवगन्तुं शक्नुमः.
समीचीनं.
लक्षणार्थे अनु इत्यस्य कर्मप्रवचनीयसंज्ञा, तृतीयार्थे, हीनार्थे, लक्षणयुक्तं भूताख्यानभागवीप्सास् वीप्सार्थे अनु इत्यस्य कर्मप्रवचनीयसंज्ञा. तर्हि अनु इति एकस्य शब्दस्य बहुषु अर्थेषु कर्मप्रवचनीयसंज्ञा भवति. एवम् अत्र अधिकार्थे केषां सर्व कर्मप्रवचनीय केषां शब्दानां कर्मप्रवचनीयसंज्ञा इति चेत् केवलं उप इति शब्दस्य. अपि च ईश्वरार्थे केषां शब्दानां कर्मप्रयोजनीयसंज्ञा इति चेत् केवलम् अधि इति शब्दस्य एव. इति कृत्वा यद्यपि एकमेव सूत्रं कृतं यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति, किन्तु अधिकार्थे उप इति शब्दस्य एव कर्मप्रवचनीयसंज्ञा, ईश्वरार्थे केवलम् अधि इति शब्दस्य एव कर्मप्रवचनीयसंज्ञा इति कृत्वा तत्र योगे सप्तमी भवति. अस्तु,
भवतां स्प्रेड्शीट् मध्ये अत्र विभाषाक्री इति यत् सूत्रं वयं पठामः तत्रापि ईश्वरे इति अर्थः अस्ति इति प्रायः स्थापनीयं.
हा हा, अत्र अस्तु, इद पठित्वा स्थापयामः इदानीं तत् तस्मिन्नेव सूत्रे चिन्तनं. वन्दी भगिनि, विभाषाक्री.
हा, पठिष्यामि. विभाषाक्री पदच्छेदः अस्ति. विभाषाक्री अनुवृत्तिसहितसूत्रमस्ति. अनुवृत्ति अस्ति कर्मप्रवचनीयाः अधिरीश्वरे. अस्तु, पदार्थः क्रुइ, क्रुइ धातौ परे, अधिः, अधिः कर्मप्रवचनीयः. अस्तु, कर्मप्रवचनीयः. विभाषा वा स्याद् ईश्वरत्वे इति यावत्, वा स्याद् ईश्वरत्वे इति यावत्. अस्तु, सूत्रार्थः अपि पठामि वा महोदय? अस्तु, क्रि धातो परे अधिः कर्मप्रवचनीयः वा स्यात् ईश्वरत्वे. सम्पूर्णसूत्रं क्रि अधिः विभाषा कर्मप्रवचनीयः, निमित्तानि क्रि धातौ परे. आदेशः अधिः इत्यस्य कर्मप्रवचनसंज्ञा, कर्मप्रवचनसंज्ञां संज्ञा विकल्पेन भवति. अधिः इत्यस्य कर्मप्रवचनीयसंज्ञा तत्रैव.
अस्तु,
उदाहरणानि यदत्र माम् अधिकरिष्यति. अस्मिन् विषये माम् अधिकरिष्यति इति यदुक्तम् इति इत्यर्थः, यदुक्तं यदुक्तम् इति अर्थः. अस्तु, अत्र कर्मप्रवचनीययोगे माम् इति द्वितीया कर्मत्वाद् एव. हा अस्तु, तत्र सूत्रमस्ति विभाषा क्रुइ, क्रुइ इत्यस्मिन् इति क्रुइ धातोः परे इति अस्ति, सप्तमी विभक्तौ अस्ति. अतः तत्र क्रुइ धातोः परे विभाषा विकल्पेन कर्मप्रवचनीयसंज्ञा भवति वा तत्र?
अनेन सूत्रेण विधानं किम्?
अनेन सूत्रेण सप्त, एकनिमिषं महोदय, क्रुइ कर्मप्रवचनीयव्या स्यात् क्रुइ धातो परे अधिः, अधिः कर्मप्रवचनीयः वा स्यात् ईश्वरत्वे. अधि कर्मप्रवचनीयसंज्ञा, अधि कर्मप्रवचनीय प्राप्नोति नो चेत् ईश्वरत्वे अपि न. अधीयस्य विधानं वा महोदय तत्र, अधि इत्यस्य विधानं वा
भाषास्य,
कस्य विधानं तत्र?
सूत्रमेकवारं पठतु.
विभाषा क्रुइ कर्मप्रवचनीयाः अधिरीश्वरे.
एकनिमिषं, इत्यपि मया योजनीयमस्ति, तदपि योजयिष्यामि. सम्पूर्णसूत्रं क्रि अधिरीश्वरे विभाषा कर्मप्रवचनीयः इति सूत्रं खलु?
आं महोदय.
तर्हि अस्मिन् सूत्रे प्रथमाविभक्त्यां किं पदमस्ति?
प्रथमाविभक्त्यां तु कर्मप्रवचनीयः इति अस्ति न, तत्र तु क्रि धातु, क्रि इति सप्तमी.
तर्हि सामान्यतया आदेशः प्रथमाविभक्त्यामेव भवति खलु?
आं महोदय, समीचीनं.
तर्हि अनेन सूत्रेण किं, कः आदेशः इति प्रश्नस्य उत्तरम्?
कः आदेशः कर्मप्रवचनीयः इति तत्र कर्मप्रवचनीय तु आदेशः भवति वा? तत्र तु प्रथमविभक्तौ अस्ति
कर्मप्रवचनीयः इति संज्ञायाः आदेशः.
अस्तु,
संज्ञाविधायकसूत्रम्.
आं महोदय.
तर्हि विभाषा कर्मप्रवचनीयः इत्युक्ते अत्र कर्मप्रवचनीयसंज्ञाविधानं विकल्पेन क्रियते.
अस्तु
अस्तु, तर्हि कस्य इदानीं स्थानिकः कस्य कर्मप्रवचनीयसंज्ञा इति विधानं विकल्पेन?
तत्र अनुवृत्तिः अस्ति अधिरीश्वरे इति सम्पूर्णसूत्रमस्ति वा? तत्र तु ईश्वरार्थे यदि अधि इति उपयोगं कर्मप्रवचनीयसंज्ञा भवति, अपि च तस्मात्
सूत्रेण एव कर्मप्रवचनीयसंज्ञा भवति.
आं महोदय,
खलु कस्य शब्दस्य कर्मप्रवचनीयसंज्ञा भवति? उत्तमम्.
सप्तविधानं पृष्टवान् न महोदय, तत्र नास्ति. तत्र तु अधीति, हा समीचीनम्.
अत्र क्रमेण चिन्तयेम. अनेन सूत्रेण विधानं किम् इति चेत् कर्मप्रवचनीयसंज्ञाविधानम्.
आम् सत्यम्.
कीदृशविधानम् इति चेत् विभाषा कर्मप्रवचनीयः इत्युक्ते विकल्पेन कर्मप्रवचनीयसंज्ञाविधानम्. कस्य इदानीं वदतु उत्तरम्. एकमेव पदं वक्तव्यं. कस्य
कर्मप्रवचनीय इत्यस्य एव विभाषा भवति न तत्र महोदय? तत्र तस्य एव
कर्मप्रवचनीयसंज्ञा भवति इति विधानम्. विकल्पेन कर्मप्रवचनीयसंज्ञा भवति. कस्य शब्दस्य कर्मप्रवचनीयसंज्ञा भवति इति प्रश्नः.
अधि इत्यस्य एव किल तत्र?
हा, तर्हि उत्तरम् अधि इति शब्दस्य.
आम् आम् स्पष्टम्.
अधि इति शब्दस्य कर्मप्रवचनीयसंज्ञा विकल्पेन भवति इति अवगतम् एतावत् पर्यन्तम्.
आम् आम् महोदय.
किन्तु अधि इति शब्दस्य कस्मिन्नर्थे प्रयुज्ये अत्र कर्मप्रवचनीयसंज्ञा भवति सामान्यतया?
अधिरीश्वरे इति अधि ईश्वरार्थे अस्ति चेत् तत्र कर्मप्रवचनीयसंज्ञा भवति, यतोहि तत्र पूर्वं पठितं.
सत्यम्. अधिशब्दस्य ईश्वरार्थे प्रयुज्ये कर्मप्रवचनीयसंज्ञा स्यात् इति अधिरीश्वरे इति सूत्रं वदति खलु?
आं महोदय.
किन्तु इदानीं विकल्पेन कर्मप्रवचनीयसंज्ञा भवति कुत्रचित्.
आम्.
तत् कदा?
तत्र तु यदि क्रुय् धातु परे अस्ति तस्मिन् समये तत्र विकल्पेन कर्मप्रवचनीयसंज्ञा अधि इत्यस्य विकल्पेन कर्मप्रवचनीयसंज्ञा भवति.
उत्तमम् इति सूत्रार्थः.
आम् महोदय.
तर्हि अधिरीश्वरे इति सूत्रेण अधिशब्दस्य ईश्वरार्थे प्रयुज्ये कर्मप्रवचनीयसंज्ञा विहिता. किन्तु किन्तु यदि क्री धातुतः अथवा ततः इति नास्ति, क्री धातुना सह अधि इति शब्दस्य प्रयोगः क्रियते तदा तत्र विकल्पेन एव कर्मप्रवचनीयसंज्ञा भवति इति एतत् सूत्रं वदति.
समीचीनम्.
ईश्वरार्थे प्रयुज्ये. अस्तु, इति सूत्रार्थः. बुद्धं खलु? तर्हि इदानीम् उदाहरणं स्वीकृत्य सूत्रस्य प्रसक्तिः प्राप्तिः प्रतिपादयतु.
परन्तु अत्र किमर्थं स्थापितं? यतोहि कर्मप्रवचनीयुक्ते द्वितीया इति भवति, सप्तमी विधानं तु कुत्रापि नास्ति न महोदय तत्र?
अत्र सप्तमी विधानं नास्ति, द्वितीया विधानमेव.
हा, तदेव मम प्रश्नः. किमर्थम् अत्र
स्थापितं? द्वितीया एव अत्र सप्तमी कृते विशिष्टसूत्रं नास्ति खलु? यथा यस्मादधिकं यस्य च ईश्वरवचनमिति तादृशविशिष्टसूत्रम् आसीत् तदर्थं तत्र सप्तमी भवति. अत्र तु तादृशसूत्रं नास्ति इति कृत्वा अत्र कर्मप्रवचनीयुक्ते द्वितीया इति सामान्यसूत्रेण भवति.
हा, परन्तु हा अत्र स्थापितं द्वितीया. हा महोदय,
भवती किं भवत्या किं करणीयं? यदि मम प्रश्नस्य उत्तरं ददाति तर्हि भवत्याः मनसि यः सन्देहः आसीत् तस्य निवारणं स्वेन भवति.
अस्तु,
इदानीं सूत्रार्थः उक्तः खलु भवत्या, पुनः एकवारं सूत्रार्थं वदतु.
हा, वदामि महोदय. अधि इत्यस्य कर्मप्रवचनीय भवति यदि विकल्पेन भवति, यदि कृ धातो परे अस्ति अधि इत्यस्य विधानं भवति अस्य सूत्रस्य कारणेन, परन्तु विकल्पेन भवति यदि कृ धातो परे अस्ति. तावदेव न महोदय, अपि च
एकमेव निमित्तं वा अधिशब्दः कस्मिन्नर्थे
एकं तु क्रीधातोपरि, द्वितीयमस्ति ईश्वर ईश्वरार्थे यदि प्रयुज्यामहे तत्र तु अधि इत्यस्य प्रयुज्यामहे क्षम्यतां प्रयुज्यामहे तत्र निमित्तद्वयमस्ति. ईश्वरार्थे इति अधि प्रयोगः भवति, द्वितीयं तु क्रीधातोपरि अस्ति चेत् अधि इत्यस्य विकल्पेन कर्मप्रवचनीयसंज्ञा भवति.
तावदेव सूत्रं वदति अधि इति शब्दस्य ईश्वरार्थे प्रयुज्ये सति, अपि च क्रीधातुतः क्रीधातुना सह तस्य प्रयोगः क्रियते चेत् तदा अनेन सूत्रेण अधिशब्दस्य विकल्पेन कर्मप्रवचनीयसंज्ञा भवति इति सूत्रम्.
आं महोदय,
अस्तु. तर्हि इदानीम् उदाहरणं स्वीकृत्य प्रतिपादयतु. अत्र उदाहरणं किम्?
यदत्र माम् अधिकरिष्यति इति अस्ति, अस्मिन् विषये माम् अधिकरिष्यति इति यद् उक्तम् इत्यर्थः. अत्र कर्मप्रवचनीययोगे माम् इति तृतीया. अस्मिन् विषये माम् अधिकरिष्यति इति यदुक्तम् इत्यर्थः. क्षम्यताम्.
अस्मिन् विषये माम् अधिकरिष्यति इति यत् तद् युक्तम् इति अर्थः.
तद्युक्तं, हा, यत् तद्युक्तम् इत्यर्थः.
यत् तद् युक्तम् इत्युक्ते समीचीनम् इति अर्थः.
अस्तु महोदय, अत्र कर्मप्रवचनीययोगे माम् इति द्वितीया. अस्तु,
इदानीम् उदाहरणं परिशीलयतु.
हा महोदय, तत्र यदत्र माम् अधिकरिष्यति, करिष्यति इति लुट् लकारः, क्रुन् इति धातु क्रू धातु अस्ति. करिष्यति इति क्रू इति परे कृ धातुतः यः शब्दः अस्ति तत्र परे अस्ति. अधि इति क्रू धातु परे अस्ति, अधि इति अस्ति, परन्तु माम् अधि तत्र अधि इति ईश्वरार्थे मम ईश्वरः इति वक्तुं शक्यते वा? तत्र माम् अधि इति अस्ति, अधि इति ईश्वरार्थे अपि भवितुम् अर्हति, यतोहि तत्र माम् अधि मम अधि करिष्यति. अधियोगे अस्मत् शब्दस्य द्वितीया विभक्ति भवति माम् इति भवति वा? तत्र माम् इति कर्मप्रवचनीययुक्ते द्वितीया भवति वा? तत्र यदि अधि अस्ति
अत्र इदानीम् अनेन सूत्रेण कर्मप्रवचनीयसंज्ञाविधानं खलु.
समीचीनं महोदय,
तावद् वदतु. इदानीं तत्र माम् इत्यस्य द्वितीया केन सूत्रेण भवति इति अनन्तरं चिन्तयेम.
अस्तु महोदय, तत्र अधि इति प्रयोगः भवति, कृ धातु परे अस्ति प्रथमं तु.
अस्तु, अत्र अधिकरिष्यति इत्यत्र करिष्यति इति क्रियापदे कृ धातुः अस्ति, प्रयुक्तः अस्ति खलु.
तेन
सह अधि इति शब्दस्य प्रयोगः कृतः कस्मिन्नर्थे?
कस्मिन्नर्थे तत्र तु ईश्वरार्थे अस्ति वा? तत्र अधि इति ईश्वरार्थे,
अधि इति शब्दस्य ईश्वरार्थे कृधातुना सह प्रयुक्तः अस्ति. तर्हि इदानीम् इति कृत्वा, इति कृत्वा अनेन सूत्रेण किम्?
अनेन सूत्रेण तत्र अधि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति.
कर्मप्रवचनीयसंज्ञा
विकल्पेन भवति,
विभा
समीचीनं, विकल्पेन भवति महोदय,
विकल्पेन भवति इति आगतम्. तर्हि अग्रे गमनात् पूर्वम् एकम् एकः प्रश्नः, अधिकरिष्यति इत्यत्र अधि इत्यस्य इति उपसर्गः वा कर्मप्रवचनीयः वा?
ओ अस्तु, तत्र कृधातु अस्ति, उपसर्गयोगे क्रिया, उपसर्गक्रियायोगे इति अपि भवितुम् अर्हति, परन्तु तत् बाधित्वा कर्मप्रवचनीयसंज्ञा भवति किल तत्र.
अत्र बाध्यबाधकविषये चिन्तनं न कुर्मः, किन्तु
एका एव संज्ञा,
कर्मप्रवचनीयसंज्ञा अस्ति,
एका एव संज्ञा भवितुम् अर्हति किल महोदय?
सत्यं. तर्हि अस्मिन् उदाहरणे अधिकरिष्यति इत्यत्र अधि इत्यस्य कर्मप्रवचनीयसंज्ञा अस्ति. उत्तमं. तर्हि प्रथमपक्षं कर्मप्रवचनीयसंज्ञा भवति इति पक्षं स्वीकुर्मः.
आं महोदय.
तदा इदानीम् अधिकरिष्यति इत्यत्र अधि इत्यस्य कर्मप्रवचनीयसंज्ञा पक्षे, संज्ञायां पक्षे किं भवति? अस्मत्शब्दस्य, अस्मत्शब्दः युक्तः अस्ति खलु?
आं महोदय.
अस्मत्शब्दस्य का विभक्तिः विधीयते?
अस्मत्शब्दस्य तत्र द्वितीया विभक्ति अस्ति न, माम् इति अस्ति न, माम् इति
केन सूत्रेण? सत्यम्, अस्मत्शब्दस्य द्वितीया विभक्तिः भवति केन सूत्रेण?
तत्र कर्मप्रवचने युक्ते द्वितीया इति भवति.
सत्यं, कर्मप्रवचनीययुक्ते द्वितीया इति सामान्यसूत्रेण इदानीम् अधिशब्दस्य ईश्वरार्थे त्रिधातुना सह प्रयुक्ते सति विकल्पेन कर्मप्रवचनीयसंज्ञा भवति इति कृत्वा युक्तशब्दस्य कर्मणि कर्मप्रवचनीययोगे द्वितीया इति सूत्रेण द्वितीया भवति.
आम् महोदय.
अस्तु, इदानीं कर्मप्रवचनीयसंज्ञा नास्ति इति पक्षः स्वीकुर्मः.
अस्तु,
अन्यः विकल्पः स्वीकुर्मः.
समीचीनं. तत्र यदि कर्मप्रवचनीयसंज्ञा नास्ति तत्र उपसर्गः,
तदा सत्यं तथा उपसर्गः भवति खलु?
उपसर्गः भवति, अधि इति उपसर्गः भवति कृधातुतः उपसर्गक्रियायोगे इति सूत्रेण तत्र उपसर्गः भवति.
तर्हि इदानीम् अस्मत् शब्दस्य का गतिः भवति?
तत्रापि मामेव भवति, यतोहि कर्मणि द्वितीया इति सूत्रेण, कर्मणि द्वितीया इति सूत्रेण तत्र कृधातु कर्मणि द्वितीया न,
उत्तमं,
कर्मणि द्वितीया
तदेव उत्तमं, कर्मणि द्वितीया इति सूत्रेण अस्मत् शब्दस्य द्वितीया भवति कस्मिन् पक्षे?
कर्मार्थे न, तत्र माम् इति कर्मार्थे भवति.
न न, कस्मिन् पक्षे अधिशब्दस्य?
अधिशब्दः उपसर्गः इति पक्षे.
ओ अस्तु अस्तु, उपसर्ग उपसर्गः भवति न तत्र महोदय?
उपसर्गः अथवा कर्मप्रवचनीयसंज्ञा नास्ति इत्यस्मिन् पक्षे.
इत्यस्मिन् पक्षे तु माम् इति तु कर्मणि द्वितीया इति सूत्रेण तत्र द्वितीया विभक्ति प्राप्नोति. अधि
सत्यं खलु? अधिशब्दस्य ईश्वरार्थे प्रयुज्ये क्रीधातुना सह तस्य विकल्पेन कर्मप्रवचनीयसंज्ञा भवति इति सूत्रस्य अर्थः. कर्मप्रवचनीयसंज्ञापक्षे अत्र माम् अस्मच्छब्दस्य माम् इति द्वितीया कर्मप्रवचनीययोगे द्वितीया इति सूत्रेण, विपक्षे इत्युक्ते यस्मिन् पक्षे कर्मप्रवचनीयसंज्ञा नास्ति इति स्वीकुर्मः तस्मिन् पक्षे कर्मणि द्वितीया इत्यनेन पुनः अस्मच्छब्दस्य माम् इति एव भवति,
द्वितीया भवति
इति द्वितीया भवति खलु?
आम् महोदय.
अस्तु, अग्रे गमनात् पूर्वम् अस्य वाक्यस्य अर्थः कः? यदत्र माम् अधिकरिष्यति इति वाक्यस्य अर्थः कः?
अधिकरिष्यति इति तु अवबुध्यते, माम् ईश्वरार्थे यद् अत्र माम् अधिकरिष्यति, ईश्वरार्थे किमपि करिष्यति वा महोदय?
अत्र अधिकरिष्यति इति पदस्य अर्थः विनियोक्ष्यते इति सिद्धान्तिकौमुदीकारेण प्रतिपादितं. विनियोक्ष्यते इत्युक्ते डैरेक्ट्स् कंट्रोल्स् इति अर्थः.
ओ अस्तु अस्तु, ईश्वरार्थे अस्तु. आम् आम् विनियोक्ष्यते इति अस्ति वा महोदय?
कोऽपि कर्ता अत्र यदत्र माम् अधिकरिष्यति इत्यत्र कर्ता उक्तः किम्?
कर्ता नास्ति महोदय, कर्म एव अस्ति न माम् इति अस्ति.
तर्हि अत्र कर्ता अपि योजितमस्ति, अत्र रामः इति स्वीकुर्मः कर्ता.
अस्तु,
रामः यदत्र माम् अधिकरिष्यति तद् युक्तम् एव इत्युक्ते रामः कस्मिंश्चित् विषये माम् अधिकरिष्यति.
ओ अस्तु,
इत्युक्ते स्वामित्वेन सः किमपि करिष्यति.
आम् महोदय.
तद् युक्तं, यदत्र माम् अधिकरिष्यति तद् युक्तं यद् भवान् करोति. भवती किमपि वदन्ती अस्ति, तन्मध्ये अहम् आगत्य भगिनी किञ्चित् स्थगयतु इति यदि अहम् आज्ञां ददामि तर्हि भवती एवं वक्तुं शक्यते, यदत्र माम् अधिकरिष्यति भवता तत् समीचीनमेव.
तद्युक्तम् अस्तु,
हा तद्युक्तमेव इति अर्थः.
अस्तु
अस्तु, तर्हि इदानीम् अन्त्यः प्रश्नः किम् इति चेत्, यथा अस्माभिः चिन्तितं पक्षे विपक्षे उभयत्र माम् इत्यस्य द्वितीया एव भवति खलु?
आम् आम् महोदय.
कर्मप्रवचनीययुक्ते द्वितीया इत्यनेन अस्मच्छब्दस्य माम् इति द्वितीया, अथवा कर्मणि द्वितीया इत्यनेन माम् इत्यस्य द्वितीया, अस्मच्छब्दस्य द्वितीया. तर्हि पक्षद्वये अपि द्वितीया एव प्राप्ते अस्य सूत्रस्य आवश्यकता का?
अस्य सूत्रस्य आवश्यकता का इत्युक्ते तत्र अधि इति ईश्वरार्थे इति अर्थः न बुध्यते न, यदि कर्मप्रवचनीयसंज्ञा न भवति चेत् महोदय, उपसर्गः भवति न? विनियोक्ष्यते इति अर्थे न भवति,
न अधिरीश्वरे इति सूत्रेण अधिशब्दस्य ईश्वरार्थे प्रयोक्तुं शक्यते इति विधानं जातम्.
हा किमर्थम्
इदानीं यदि एतत् सूत्रं नास्ति?
तत्रापि द्वितीया भवति एव इति भवतः विवक्षा किल, किमर्थम् एतत् सूत्रं प्रयुक्तम्?
मम प्रश्नस्य उत्तरं ददातु, मम विवक्षा का इति मा चिन्तयतु.
न वदतु महोदय, क्षम्यता वदतु.
अस्तु न, भवती एव चिन्तयतु, इदानीं सूत्रस्य अर्थः भवत्या अवबुद्धः खलु?
हा तत्र तु विकल्पेन विभाषा क्रुय इति अस्ति, विकल्पेन अधि इति कर्मप्रवचनीयसंज्ञा भवति इति सूत्रस्य.
यदि एतत् सूत्रं नास्ति तर्हि यदत्र माम् अधिकरिष्यति इत्यत्र अधि इति शब्दः ईश्वरार्थे प्रयुक्तः अस्ति इति चिन्तयतु.
ईश्वरार्थे कथं भवति? तत्र तु अधि इति उपसर्गः भवति न तत्र, यदि अधि इति कर्म.
मया इदानीम् अधि इति शब्दः ईश्वरार्थे प्रयुक्तम् इति स्वीकरोतु.
अस्तु हा अस्तु.
अपि च एतत् सूत्रं नास्ति.
अस्तु,
तर्हि किं भवति? अस्मत् शब्दस्य का विभक्तिः प्राप्यते?
तत्र तत्रापि द्वितीया एव भवति न कर्मणि द्वितीया इति नेन तत्र
भगिनि इदानीं कर्मप्रवचनीयसंज्ञा जाता मया उक्तं खलु अधि इति शब्दः ईश्वरार्थे मया प्रयुज्यते इति उक्तं कर्मी तर्हि कर्मणि द्वितीया इति सूत्रस्य प्रसक्तिरेव नास्ति
अस्तु महोदय
अधि इति शब्दस्य अधिरीश्वरे इति सूत्रेण ईश्वरार्थे मया प्रयुक्तः तदुक्तम् अपि च एतत् सूत्रं नास्ति
ओ
तर्हि इदानीम् अस्मत् शब्दस्य केन सूत्रेण का विभक्तिः भवति इति प्रश्नः
एतत् सूत्रमपि नास्ति चेदपि कर्मप्रवचनीययुक्ते द्वितीया इत्यनेन तत्र माम् इत्येव भवति न महोदय
कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रस्य प्रसक्तिः अस्ति
अस्ति
तेन माम् इति द्वितीया भवितुम् अर्हति
अस्तु
किन्तु अस्तु श्रीराम महोदय अत्र किं चिन्तयति यदि एतत् सूत्रं नास्ति अपि च कर्मप्रवचनीय अत्र ईश्वरार्थे मया प्रयुक्तम् अधि इति शब्दः
महोदय अहं चिन्तयामि पूर्वं द्वितीया विभक्ति पठनसमये वयं पठितवन्तः कर्मप्रवचनयुक्ते तत्र कर्मपद क्रियापदस्य किमपि कार्यं भवति शकारस्य तादृशकार्यं निषेधं वा तत् सम्पूर्णतया न स्मरामि तत्कारणार्थं
तावत् अस्तु
अद्रि ईश्वरे अनेन सूत्रेण मयि इति भवति
उत्तमं मयि इति भवति किन्तु अधिरीश्वरे इति सूत्रेण न भवति
ओ यस्मात् अधिकं यस्य ईश्वरस्य ओ अधि इति कर्मप्रवचनीयसंज्ञा भवति अधि ईश्वरेण
सत्यम् इदानीमेव पठितं खलु द्वितीय अपवादः योगः इति तर्हि अधि इति शब्दः ईश्वरार्थे मया प्रयुक्तः इति कृत्वा अधिरीश्वरे इति सूत्रेण अधिशब्दस्य इदानीं कर्मप्रवचनीयसंज्ञा जाता प्रथमसोपाने तदनन्तरं कर्मप्रवचनीययोगे द्वितीया इत्यनेन अस्मत् शब्दस्य द्वितीया स्यात् किन्तु द्वितीयां प्रबाध्य यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रेण सप्तमी स्यात् यदि एतत् सूत्रं नास्ति वंशी भगिनी बुध्यते किम्
आं महोदय
महोदय मम प्रश्नः अस्ति विभाषा अस्ति विकल्पेन तत्र एकपक्षे भवति कर्मप्रवचनीयसंज्ञा माम् अन्यपक्षे सप्तमी भवेत् न साधु न इति मम चिन्तनं तत् आसीत्
न भवति अन्यस्मिन् पक्षे इत्युक्ते कस्मिन् पक्षे
यस्मिन् पक्षे माम् इति कर्मप्रवचनीय द्वितीया न आगच्छति अधियोगे
न कस्मिन् पक्षे इदानीं कर्मप्रवचनीयसंज्ञकपक्षे वा
कर्मप्रवचनीय द्वयोः पक्ष एकमेव अस्ति कर्मप्रवचनीयसंज्ञा ओके
न अत्र क्रमेण चिन्तनीयं भगिनि क्रमेण चिन्तनीयं भवत्याः मनसि कः क्लेशः जायते इति मया अवबुद्धम् तर्हि भवती एव वदतु इदानीं यदि एतत् सूत्रं नास्ति तर्हि मयि अधिकरिष्यति इति भवेत् यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रेण खलु किन्तु इदानीं विभाषाक्रियी इति सूत्रम् अस्ति इति कृत्वा किं जातम्
विकल्पेन कर्मप्रवचनीय अधीश्वरे इति विधानं विकल्पेन भवति
विधानं भवति सत्यं विकल्पं भवति इति कृत्वा इदानीं किमर्थं यस्य यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रस्य प्रसक्तिः प्राप्तिः अत्र न भवति. किमर्थम्?
कारण कि कर्मप्रवचनीयसंज्ञा तस्य निषेधम् अस्ति एकपक्षे. यस्मात् अधिकं तत्र कर्मप्रवचनीयसंज्ञा भवेत्. कर्मप्रवचनीयसंज्ञा यदि नास्ति त यस्मात् अधिकं यस्य च ईश्वर तस्य प्रसक्तिः न भवति. साधु.
अस्तु, पश्यतु, इदानीम् अनेन सूत्रेण विकल्पेन कर्मप्रवचनीयसंज्ञा विधीयते अधिशब्दस्य ईत्व ईश्वरार्थे, खलु? निमित्तं किं? क्रीधातु धातुना योगे. अस्तु, तर्हि इदानीं कर्मप्रवचनीयसंज्ञा जाता इत्यस्मिन् पक्षे सूत्रद्वयं कार्यं करोति, खलु? एकं तु कर्मणि कर्मप्रवचनीययुक्ते द्वितीया इति एकं सूत्रम्. अन्यत् सूत्रमस्ति यस्मादधिकं यस्य च ईश्वरम् ईश्वरवचनं तत्र सप्तमी इति सूत्रम्. उभयोः सूत्रयोः प्राप्तिः अस्ति, प्रसक्तिः अस्ति.
साधु.
हा, तर्हि इदानीं प्रथमं कर्मप्रवचनीययुक्ते द्वितीया इति सामान्यसूत्रं, तं सूत्रं प्रबाद्य यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रस्य कार्यम्. किन्तु पुनः तं प्रबाद्य कर्मणि प्रवचनीययोगे द्वितीया इति सूत्रस्य एव कार्यं भवति यदि अधि इति शब्दस्य ईश्वरार्थे प्रयुज्ये अपि च क्रीधातुना सह इति कृत्वा कर्मप्रवचनीयसंज्ञकपक्षे अधिशब्दस्य ईश्वरार्थे क्रीधातुना सह प्रयोगे कर्मणि कर्मप्रवचनीययोगे द्वितीया इति सूत्रस्य एव प्रसक्तिः. यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रस्य प्रसक्तिः नास्ति.
अवगतं. निषेधस्य निषेधः
आगतः. निषेधस्य निषेधः. प्रथमं सामान्यसूत्रं कर्मप्रवचनीययुक्ते द्वितीया इत्यस्य प्रसक्तिः. किन्तु अधि इति शब्दः ईश्वरार्थे प्रयुक्ते चेत् कर्मप्रवचनीययुक्ते द्वितीया यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रस्य प्रसक्तिः तेन युक्तशब्दस्य सप्तमी. किन्तु यदि अधिशब्दः ईश्वरार्थे प्रयुज्यते किन्तु क्रूधातुना सह प्रयुज्यते तदा विकल्पेन एव कर्मप्रवचनीयसंज्ञा भवति. यस्मिन् पक्षे कर्मप्रवचनीयसंज्ञा भवति तस्मिन् पक्षे यस्मादधिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रं प्रबाद्य पुनः कर्मप्रवचनीययुक्ते द्वितीया इति सूत्रस्य एव कार्यं भवति तेन अस्मत्शब्दस्य माम् इति द्वितीया भवति. इदानीं विपक्षे कर्मप्रवचनीयसंज्ञा नास्ति चेत् किं भवति इति चेत् कर्मणि द्वितीया इत्यनेन अस्मत्शब्दस्य द्वितीया. तर्हि इदानीमपि प्रश्नः अस्ति. कः प्रश्नः इति चेत् कर्मत्वादेव द्वितीया सिद्धेः किमर्थम् अनेन सूत्रेण कर्मप्रवचनी किं कर्मप्रवचनीयत्वेन किमर्थमत्र कर्मप्रवचनीयसंज्ञा विधानं कर्तव्यम् इत्युक्ते क्रीधातुतः योगे कर्मप्रवचनीयसंज्ञा एव न विधानं कुर्मः इत्युक्ते विभाषायी क्री इति सूत्रं न कार्यम्. क्री योगे अत्र कर्मप्रवचनीयसंज्ञा एव न स्यात् इति किमर्थं न स्यात् सूत्रम् इति प्रश्नः. बुध्यते खलु प्रश्नः?
आमाम्.
हा, तर्हि प्रश्नः पुनः वदामि. अनेन सूत्रेण विभाषा क्री इति सूत्रेण कर्मप्रवचनीयसंज्ञा विकल्पेन विधीयते. तर्हि पूर्वपक्षी पृच्छति किमर्थं विकल्पेन विधानं
अत्र कर्मप्रवचनीयसंज्ञा एव न स्यात् अधिरीश्वरे इति सूत्रेण अधिशब्दस्य ईश्वरार्थे कर्मप्रवचनीयसंज्ञा इति तु भवतु, किन्तु यदि कृधातुना प्रयोगः कुर्मः तदा कर्मप्रवचनीयसंज्ञा एव न स्यात् इति किमर्थं न स्यात् इति प्रश्नः क्रियते. तस्य उत्तरम् उदात्तस्वदबाधार्थम् इति. तत्र बहूनि सूत्राणि सन्ति, अत्र न चिन्तयेम. किन्तु अत्र गति इति संज्ञा भवति, तेन उदात्तसंज्ञा भवति. किन्तु अत्र उदात्तसंज्ञा नैष्यते. तस्य इति चेत् करिष्यति इति पदस्य तत्र स्वरः भवति, उदात्तसंज्ञा भवति. उदात्तसंज्ञा कस्य भवति इति चेत् केवलं स्वरवर्णानामेव, तत्र उदात्तः वा अनुदात्तः वा स्वरितः वा इति संज्ञा भवति, स्वरः भवन्ति इति कृत्वा अधिकरिष्यति इत्यत्र कस्य स्वरस्य उदात्तसंज्ञा भवति इति अहं न जानामि. भवतु, किन्तु उदात्तसंज्ञा कस्यापि स्वरस्य भवति, अधिकरिष्यति इत्यत्र, किन्तु तन्न इष्यते इति कृत्वा कर्मप्रवचनीयसंज्ञा अपि उक्ता. तर्हि कर्मप्रवचनीयसंज्ञा पक्षे यद्यपि द्वितीया एव भवति, कर्मप्रवचनीययोगे द्वितीया इत्यनेन, तद् सा द्वितीया कर्मणि द्वितीया इत्यनेनैव भवति. तर्हि किमर्थं कर्मप्रवचनीयसंज्ञाविधानं संज्ञायाः विधानम् इति प्रश्ने सति अत्र स्वरबाधार्थम् उदात्तसंज्ञा अत्र न इष्यते. प्रायः तेषु दिनेषु तत्र यदा संस्कृतमाध्यमेन वदन्ति तत्र स्वरसहितं यथा वेदस्य उच्चारणं कुर्मः तदा प्रायः तेषु दिनेषु स्यात्, न जाने. किन्तु अत्र स्वरं श्रुत्वा यदि अधिकरिष्यति इति पदम् उदात्तस्वरेण न उक्तं तदा इदानीम् अधि इत्यस्य कर्मप्रवचनीयसंज्ञा विवक्षिता इति अवगन्तुं शक्नुमः इति उक्तं. भवतु, तावद् अवगच्छामश्चेत् पर्याप्तम्. अस्तु, प्रश्नाः सन्ति वा? नो चेत् अस्तु, श्रीराम महोदय, अत्र सिद्धान्तकौमुदी व्याख्यानं पठतु.
आं महोदय, सिद्धान्तकौमुदी अधिः कर्तारो
करोतौ
किञ्चित् अधिः करोतौ प्राक् संज्ञः वा स्यात् ईश्वरार्थे
ईश्वरे अर्थे ईश्वरार्थे
ईश्वरे अर्थे ईश्वरे अर्थे यत् अत्र माम् अधिकरिष्यति विनियोक्ष्यते इत्यर्थः. डैरेक्ट् कण्ट्रोल्स् इह विनियोक्तुः ईश्वरत्वं गम्यते इति सप्तमी. तत्र समाप्तिः
सप्तमी विधानस्य समाप्तिः इति कारकप्रकरणम् इति कारकचिन्तनमपि समाप्तम्
भवति. अधिः
अस्तु, तर्हि स्वशब्दैः वदति वा?
अधिः करोतु प्राक् संज्ञा वा स्यात् अत्र करकृज्ञातोः पूर्वम् अधिशब्दः अस्ति, तस्य कर्मप्रवचनसंज्ञा भवति ईश्वरार्थे यदत् विकल्पेन वा इति प्रयोगः अस्ति इति कृत्वा विकल्पेन स्यात् वा स्यात् विकल्पेन यदत्र माम् अधिकरिष्यति. अत्र अधि इति निपातः अत्र कर्मप्रवचनसंज्ञा प्राप्नोति, यतोहि तस्मात् परं क्रीङ् इति धातु अस्ति. तस्य अधिशब्दस्य कर्मप्रवचनसंज्ञा अनेन सूत्रेण विभाषाकरणी इति सूत्रेण भवति. कर्मप्रवचनसंज्ञाप्राप्ते तस्य युक्ते मा इति अस्मत्शब्दस्य द्वितीयविधानं कर्मप्रवचनयुक्ते द्वितीया इति सूत्रेण विकल्पेन भवति.
अस्तु, तर्हि अत्र सिद्धान्तिकौमुदीकारस्य वाक्यमस्ति खलु, अधिः करोतौ प्राक् संज्ञः वा स्याद् ईश्वरे अर्थे.
सत्यं महोदय.
तस्य वाक्यस्य अर्थस्य प्रतिपादनं करोतु.
अधिः अधिः करोतौ, करोतौ इत्युक्ते क्रीं जातुः, करोति अथवा करोति इति पदे सप्तमी अस्ति. करोतौ इत्युक्ते क्रीं जातु.
अस्तु, समीचीनं, तादृशमेव करणीयं. करोतौ इत्यत्र सप्तमी खलु, प्रातिपदिकं किं, प्रातिपदिकं किं
करोति इति प्रातिपदिकं.
अत्र सप्तमी कस्मिन् अर्थे?
विषयसप्तमी, परसप्तमी, क्षम्यताम्.
हा, पारिभाषिकसप्तमी अत्र, परसप्तमी,
परसप्तमी.
अस्तु, तदनन्तरं
प्राक् इत्युक्ते पूर्वम्. अधिः यथा पूर्वं प्राक् सम्यः, प्राक् सम्यः इत्युक्ते पूर्वम् अधि तस्य अधिरीश्वरे इति सूत्रे तस्य कर्मसंज्ञा कर्मप्रवचनसंज्ञा विधानम् आसीत्, तत् संज्ञा एव इदानीम् अधिः इति शब्दस्य करोतौ करोति इत्युक्ते कृञ्जातौ परे भवति इति अर्थः. संज्ञा इत्युक्ते पूर्वं पूर्वस्मिन् सूत्रे एव अधिशब्दस्य कर्मप्रवचनसंज्ञाविधानम् आसीत्, तदेव अत्र अत्रापि तत्र अधिशब्दस्य कर्मप्रवचनसंज्ञाविधानं विकल्पेन वा इति शब्दस्य ईश्वरार्थे भवति इति.
ईश्वरे अर्थे अत्र कीदृशसप्तमी?
ईश्वरे अर्थे विषयसप्तमी.
विषयसप्तमी वा सतिसप्तमी वा? ईश्वरे अर्थे इति सप्तमी द्वयमस्ति खलु.
ईश्वरे अर्थे अत्र पदद्वयम् अस्ति, तदापि ईश्वर इत्यर्थे
ईश्वर इति अर्थ गम्यमानः अस्ति तदा सतिसप्तमी.
गम्यमाने अस्तु इति अर्थ गम्यमाने अस्तु तत्र सतिसप्तमी.
अधिः तर्हि एवं वक्तव्यम्, अधिः इति शब्दः अथवा अधि इति शब्दः ईश्वरार्थे प्रयुक्ते, ईश्वरे अर्थे प्रयुक्ते, करोतौ परे कृ धातुः परे अधिशब्दस्य प्रयोगः ईश्वरार्थे प्रयुक्ते प्राक्संज्ञः. प्राक्संज्ञः इत्युक्ते अस्य सूत्रस्य पूर्वसूत्रमस्ति अधिरीश्वरे इति सूत्रं. सूत्रसंज्ञां पश्यन्तु, 1497 इति अधिरीश्वरे, 1498 इति एतत् सूत्रं. प्राक्संज्ञः इत्युक्ते कर्मप्रविचनीयसंज्ञा भवति अधिशब्दस्य वा विकल्पेन इति तादृशमस्ति तेषां शैली. अधिः करोतु प्राक्संज्ञः वा स्याद् ईश्वरे अर्थे इति. अस्तु, तर्हि काशिका केवलं पठतु महोदय.
अधिः करोतु विभाषा कर्मप्रवचनसंज्ञः भवति यदत्र माम् अधिकरिष्यति.
तदेव अत्र अधिः करोतु इति एतदेव शैली, एषा एव शैली तेनापि प्रयुक्ता, किन्तु अत्र विभाषा सिद्धान्तिकौमुदीकरण वा इति उक्तम्. अत्र विभाषा
इति स्पष्टतया काशीकारेण उक्तमस्ति,
प्राक्संज्ञः इति उक्तं, अत्र तु कर्मप्रविचयसंज्ञः भवति इति उक्तम्. अस्तु, इति कारकप्रकरणम् अद्य अस्माभिः समाप्य.
महोदय, एकः प्रश्नः अत्र वंशीभगिन्या अपि पूर्वं पृष्टवती आसीत्, अत्र माम् इति तु द्वितीया भवति, अधुना सप्तमी इति विषयः अस्ति, तर्हि किमर्थम् अत्र स्थापितम् एतत् सूत्रम् इति प्रश्नः.
हा, सप्तमी विभक्तेः अपवादः अस्ति खलु
इत्यर्थम्.
हा, यथा पञ्चमी विभक्ते इति सूत्रं सप्तमी इत्यस्मिन् प्रकरणे स्थापितम्. किमर्थमिति चेत् यतस्य निर्धारणम् इति सूत्रेण सप्तमी अथवा षष्ठी विधीयते, किन्तु यत्र भेदार्थे प्रयुज्यते तदा पञ्चमी भवति इत्युक्ते अपवादत्वेन अस्ति इति कृत्वा अत्र स्थापितम्.
अवगतम्.
अस्तु.
अपि च महोदय तत्र सूत्रद्वयमस्ति महोदय, विभाषाकुणि इत्यस्य सूत्रद्वयमस्ति.
सूत्रद्वयमस्ति वा?
आम् महोदय, एकं तु अष्टनवतितमं सूत्रमस्ति, अद्य वयं पठितवन्तः. एकम् अन्यत् अस्ति सप्त एकनिमिष द्विसप्ततितमं सूत्रमस्ति महोदय.
भवतु, अनेन किम् इत्युक्ते तत्र अनुवर्तनं कुर्मश्चेत्
हा हा
सम्पूर्णसूत्रं भिद्यते निश्चयेन.
तदपि अस्ति.
आमामाम्. अस्तु, तर्हि इदानीं कारकप्रकरणम् अस्माभिः समापितं. तर्हि अग्रिमे वर्गे किं कुर्मः, अत्र स्प्रेड्शीट् अस्ति खलु यस्मात् वयं पारायणं कुर्मः, तत्र अहमिदानीं क्रमस्य परिवर्तनं कृतम्. इत्युक्ते पूर्वं कौमुदी क्रमेण सङ्ख्याक्रमेण आसीत्, किन्तु इदानीं पाणिनिमहर्षिणा यथा सूत्रितं तथामत्र मया स्थापितमस्ति. अग्रिमे वर्गे अग्रिमवर्गम् आरभ्य अत्र पारायणं न कुर्मः, केवलं साक्षात् सूत्रं पठित्वा, किन्तु इदानीं पाणिनिमहर्षिणा येन क्रमेण कृतं तस्मिन् क्रमे वयम् अत्र प्रत्येकं सूत्रं स्वीकृत्य सम्पूर्णसूत्रम् अत्र मया स्थापितमस्ति. तर्हि केवलं सूत्रं पठित्वा तस्य अर्थः वक्तव्यः भवति, केवलं सूत्रं पठित्वा.
किं किं सूत्रं पठित्वा आगन्तव्यम् इति आदौ एव वदति वा महोदय?
इदानीं स्प्रेड्शीट् मया परिवर्तितमस्ति.
आमां, कति सूत्राणि इति वदति चेत् किञ्चित् वयं
मम चिन्तनमस्ति, प्रायः मम आशयः अस्ति दशसूत्राणि यावत् एकस्मिन् वर्गे करणीयम् इति, करणीयानि इति, पठनीयानि इति मम आशयः अस्ति. तर्हि तत्र कारके इति प्रथमं सूत्रं, तदारभ्य भुवः प्रभवः अपादानं कारकम् इति यावत् अत्र भवतु. यदि सिद्धतां न क्रियते चेदपि क्लेशः नास्ति, अत्र अभ्यासाय भवतु. केवलं सूत्रं दृष्ट्वा तस्य अवगमनं जायेत, तदर्थम् एषः अभ्यासः, अपि च पुनस्मारणायापि भवति इति. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादः.
शुभाशयः.